रक्षो वधान्तो न च मे प्रयासः व्यर्थस्य वैरप्रतिमोचनाय अमर्षणशोणितकाङ्क्षया किं पदास्पृशन्तं दशति द्विजिह्वः
रक्ष इति किञ्च मे रक्षोवधान्तः प्रयासः व्यर्थः न किन्तु सः वैरप्रतिमोचनाय वैरशोधनाय तथा हि अमर्षणः असहनः द्विजिह्वः सर्पः पदा पादेन स्पृशन्तं पुरुषं शोणितकाङ्क्षया दशति किम् किन्तु वैरनिर्यातनाय इत्यर्थः
तदेष सर्गः करुणार्द्रचित्तैः न मे भवद्भिः प्रतिषेधनीयः यद्यर्थिता निर्हृतवाच्यशल्यान् प्राणान् मया धारयितुं चिरं वः
तदिति तत् तस्मात् एषः मे सर्गः निश्चयः सर्गस्वभावनिर्मोक्षनिश्चयाध्यायसृष्टिषु इत्यमरः करुणार्द्रचित्तैः भवद्भिः न प्रतिषेधनीयः निर्हृतं वाच्यमेव शल्यं येषां तान् प्राणान् मया चिरं धारयितुं धारणं कारयितुं वः युष्माकम् अर्थिता अर्थित्वम् इच्छा यदि अस्ति इति शेषः
इत्युक्तवन्तं जनकात्मजायां नितान्तरूक्षाभिनिवेशमीशम् न कश्चन भ्रातृषु तेषु शक्तः निषेद्धुमासीदनुमोदितुं वा
इति उक्तवन्तं जनकात्मजायां विषये नितान्तरूक्षाभिनिवेशम् अतिक्रूराग्रहम् ईशं स्वामिनं तेषु भ्रातृषु मध्ये कश्चन अपि निषेद्धुं निवारयितुम् अनुमोदितुं वा प्रवर्तयितुं वा शक्तः नासीत् पक्षद्वयस्यापि प्रबलत्वात् इत्यर्थः
स लक्ष्मणं लक्ष्मणपूर्वजन्मा विलोक्य लोकत्रयगीतकीर्तिः सौम्येति चाभाष्य यथार्थभाषी स्थितं निदेशे पृथगादिदेश
स इति लोकत्रयगीतकीर्तिः यथार्थभाषी लक्ष्मणपूर्वजन्मा लक्ष्मणाग्रजः सः रामः निदेशे स्थितम् आज्ञाकारिणं लक्ष्मणं विलोक्य हे सौम्य सुभग इत्याभाष्य च पृथक् भरतशत्रुघ्नाभ्यां विनाकृत्य आदिदेश आज्ञापयामास
प्रजावती दोहदशंसिनीते तपोवनेषु स्पृहयालुरेव सत्वं रथी तद्व्यपदेशनेयां प्रापय्य वाल्मीकिपदं त्यजैनाम्
प्रजावतीति दोहदः गर्भिणी मनोरथः तत् शंसिनी ते प्रजावती भ्रातृजाया प्रजावती भ्रातृजाया इत्यमरः तपोवनेषु स्पृहयालुरेव सस्पृहा इव स्पृहि गृहि इत्यादिना आलुच् प्रत्ययः सह त्वं रथीसन् तद्व्यपदेशेन दोहदमिषेण नेयां नेतव्यां एनां सीतां वाल्मीकेः पदं स्थानं प्रापय्य गमयित्वा विभाषापः इत्ययादेशः त्यज
स शुश्रुवान्मातरि भार्गवेण पितुर्नियोगात् प्रहृतं द्विषद्वत् प्रत्यग्रहीदग्रजशासनं तत् आज्ञा गुरूणां ह्यविचारणीया
स इति पितुः जमदग्नेः नियोगात् शासनात् भार्गवेण जामदग्नियेन कर्त्रा नलोक इत्यादिना षष्ठी प्रतिषेधः मातरि ద్విషతి ఇవ ద్విషద్వత్ తత్ర తస్యేవ ఇతి వతి ప్రత్యయః ప్రహృతం ప్రహారం శుశ్రువాన్ శ్రుతవాన్ భాషాయాం సదవశశ్రువః ఇతి క్వసు ప్రత్యయః సహ లక్ష్మణః తదగ్రజశాసనం ప్రత్యగ్రహీత్ హి యస్మాత్ గురుణాం ఆజ్ఞా అవిచారణీయా.
అథానుకూలశ్రవణ ప్రతీతాం అత్రస్నుభిర్యుక్తధురం తురంగైః రథం సుమంత్ర ప్రతిపన్న రశ్మిం ఆరోప్య వైదేహసుతాం ప్రతస్థే.
అథేతి అథ అసౌ లక్ష్మణః అనుకూలశ్రవణేన ప్రతీతాం ఇష్టాకర్ణనేన తుష్టాం వైదేహసుతాం అత్రస్నుభిః అభీరుభిః గర్భిణీవహనయోగ్యైః గర్భిణీవహనయోగ్యైః త్రసి గృధి ధృషి క్షిపేః కృనుః ఇతి కృప్రత్యయః తురంగైః యుక్తధురం సుమంత్రేణ ప్రతిపన్న రశ్మిం గృహీత ప్రగ్రహం రథం ఆరోప్య ప్రతస్థే.
సా నీయమానా రుచిరాన్ ప్రదేశాన్ ప్రియంకరో మే ప్రియ ఇత్యనందత్ నాబుద్ధ కల్పద్రుమతాం విహాయ జాతం తమాత్మన్యసి పత్రవృక్షం.
సేతి సా సీతా రుచిరాన్ ప్రదేశాన్ నీయమానా ప్రాప్యమానా సతీ మే మమ ప్రియః ప్రియం కరోతీతి ప్రియంకరః ప్రియకారీతి అనందత్ క్షేమప్రియమద్రేణ చ ఇతి చకారాత్ ఖచ్ ప్రత్యయః తం ప్రియం ఆత్మని విషయే కల్పద్రుమతాం విహాయ అసిపత్రవృక్షం జాతం న అబుద్ధ న అజ్ఞాసీత్ బుధ్యతేర్లంగ్ అసిపత్రవృక్షః ఖడ్గాకారదలః కోపి అపూర్వః వృక్షవిశేషః అసిపత్రో భవేత్ కోశకారే చ నరకాంతరే ఇతి విశ్వః ఆసన్న ఘాతుకః ఇతి భావః.
జుగూహ తస్యాః పథి లక్ష్మణో యత్ సవ్యేతరేణ స్ఫురతాత దక్షిణ ఆఖ్యాతమస్యై గురుభావి దుఃఖం అత్యంత లుప్త ప్రియదర్శనేన.
జుగూహేతి పథి లక్ష్మణః యత్ దుఃఖం తస్యాః సీతాయాః జుగూహ ప్రతిసంహృతవాన్ తత్ గురు భావి భవిష్యత్ దుఃఖం అత్యంతలుప్తం ప్రియదర్శనం యస్య తేన స్ఫురత సవ్యేతరేణ దక్షిణేన అక్షణా అస్యై సీతాయై ఆఖ్యాతం స్త్రీణాం దక్షిణాక్షిస్ఫురణం దుర్నిమిత్తం ఆహుః.
సా దుర్నిమిత్తోపగతాద్విషాదాత్ సద్యః పరిమ్లానముఖారవింద రాజ్ఞః శివం సావరజస్య భూయాత్ ఇత్యాశశంసే కరణైరబాహ్యైః.
సేతి సా సీతా దుర్నిమిత్తేన దక్షిణాక్షిస్ఫురణరూపేణ ఉపగతాత్ ప్రాప్తాత్ విషాదాత్ దుఃఖాత్ సద్యః పరిమ్లానముఖారవిందాసతి సావరజస్య సానుజస్య రాజ్ఞః రామస్య శివం భూయాత్ ఇత్యబాహ్యైః కరణైః అంతఃకరణైః ఆశశంసే శంసతేః అపేక్షాయాం ఆత్మనేపదం ఇష్యతే. కరణైః ఇతి బహువచనం క్రియావృత్త్యభిప్రాయం పునఃపునః ఆశశంస ఇత్యర్థః.
గురోర్నియోగాద్వనితాం వనాంతే సాధ్వీం సుమిత్రాతనయో విహాస్యన్ అవార్యతే వోత్థిత వీచిహస్తైః జన్హోర్దుహిత్రా స్థితయా పురస్తాత్.
గురోరితి గురోః జ్యేష్ఠస్య నియోగాత్ సాధ్వీం వనితాం అత్యాజ్యాం ఇత్యర్థః. వనాంతే విహాస్యన్ త్యక్ష్యన్ సుమిత్రాతనయః లక్ష్మణః పురస్తాత్ అగ్రే స్థితయా जह्नोः दुहित्रा जाह्नव्या उत्थितैः वीचिहस्तैः अवार्यता इव अकार्यं मा कुरु इत्यवार्यता इव इत्युत्प्रेक्षा।
रथात् स यन्त्रानिगृहीतवाहात् ताम् भ्रातृजायाम् पुलिनेऽवतार्य गङ्गाम् निषादाहृतनौ विशेषः ततारसन्धामिव सत्यसन्धः।
रथादिति सत्यसन्धः सत्यप्रतिज्ञः सः लक्ष्मणः यन्त्रा सारथिना निगृहीतवाहात् रुद्धाश्वात् रथात् भ्रातृजायाम् पुलिने अवतार्य आरोप्य निषादेन किरातेन आहृतनौविशेषः आनीतदृढनौकस्सन् गङ्गाम् भागीरथीम् सन्धाम् प्रतिज्ञामिव ततार सन्धा प्रतिज्ञामर्यादा इत्यमरः।
अथ व्यवस्थापितवाक् कथञ्चित् सौमित्रिरन्तर्गतबाष्पकण्ठः औत्पातिकम् मेघ इवाश्मवर्षम् महीपते शासनमुज्जगार।
अथेति अथ कथञ्चित् व्यवस्थापिता प्रकृतिम् आपादिता वाक् येन सह अन्तर्गतबाष्पः कण्ठः यस्य सः कण्ठस्तम्भिताश्रुः इत्यर्थः। सौमित्रिः महीपतेः शासनम् मेघः उत्पाते भवम् औत्पातिकम् अश्मवर्षम् शिलावर्षमिव उज्जगार उद्गीर्णवान्। दारुणत्वेन अवाच्यत्वात् उज्जगार इत्युक्तम्।
ततोऽभिषङ्गानिलविप्रविद्धा प्रभ्रश्यमानाभरणप्रसूना स्वमूर्तिलाभप्रकृतिम् धरित्रीम् लतेव सीता सहसा जगाम।
तत इति ततः अभिषङ्गः पराभवः शापे त्वभिषङ्गः पराभवे इत्यमरः। स एव अनिलः तेन विप्रविद्धा अभिहता प्रभ्रश्यमानानि पतन्ति आभरणान्येव प्रसूनानि यस्यास्सा सीता लता इव सहसा स्वमूर्तिलाभस्य स्वशरीरलाभस्य स्वोत्पत्तेः प्रकृतिम् कारणम् धरित्रीम् जगाम भूमौपपात इत्यर्थः। स्त्रीणाम् आपदि मात इव शरणम् इति भावः।
इक्ष्वाकुवंशप्रभवः कथम् त्वाम् त्यजेदकस्मात् पतिरार्यवृत्तः इति क्षितिः संशयितेव तस्यै ददौ प्रवेशम् जननीन तावत्।
इक्ष्वाक्विति इक्ष्वाकुवंशप्रभवः महाकुलप्रसूतिः इत्यर्थः। आर्यवृत्तः साधुचरितः पतिः भर्ता त्वाम् अकस्मात् अकारणात् कथम् त्यजेत् असम्भावितम् इत्यर्थः। इति संशयिता इव सन्दिहाना इव तावत् त्यागहेतुज्ञानावधेः प्राक् इत्यर्थः। जननी क्षितिः तस्यै सीतायै प्रवेशम् आत्मनि इति शेषः न ददौ।
सा लुप्तसंज्ञा न विवेद दुःखम् प्रत्यागता सुसमतप्यतान्तः तस्या सुमित्रात्मजयत्नलब्धः मोहादभूत् कष्टतरः प्रबोधः।
सेति लुप्तसंज्ञा नष्टचेतना मूर्छिता सा दुःखम् न विवेद प्रत्यागतासुः लब्धसंज्ञासती अन्तः समतप्यत दुःखेन अदह्यत इत्यर्थः। तपेः कर्मणि लङ् कर्मकर्तरीति केचित् तन्न तपस्तपः कर्मकस्यैव इति यङ् नियमात् तस्याः सीतायाः सुमित्रात्मजयत्नलब्धः प्रबोधः मोहात् कष्टतरः अतिदुःखदः अभूत् दुःखवेदनासम्भवात् इति भावः।
न चावदद्भर्तुरवर्णमार्या निराकरिष्णोर्वृजिनादृतेऽपि आत्मानमेव स्थिरदुःखभाजम् पुनः पुनर्दुष्कृतिनम् निनिन्द
न चेति आर्या साध्वी सा सीता वृजिनात् ऋते येन सह विनापि कलुषम् वृजिनैनोघम् इत्यमरः अन्यारादितरर्ते इत्यादिना पञ्चमी निराकरिष्णोः निरासकस्य अलङ्कृञ् इत्यादिना इष्णुच् प्रत्ययः भर्तुः अवर्णम् अपवादम् न च अवदत् नैव अवादीत् किन्तु स्थिरदुःखभाजम् अत एव दुष्कृतिनम् आत्मानम् एव पुनः पुनः निनिन्द
आश्वास्य रामावरजः सतीम् ताम् आख्यात वाल्मीकिनिकेतमार्गः निघ्नस्य मे भर्तृनिदेशरौक्ष्यम् देवि क्षमस्वेति बभूवनम्रः
आश्वास्येति रामावरजः लक्ष्मणः सतीम् साध्वीम् ताम् आश्वास्य आख्यातः उपदिष्टः वाल्मीकेः निकेतस्य आश्रमस्य मार्गः येन सह तथोक्तः सन् निघ्नस्य पराधीनस्य अधीनो निघ्न आयत्तः इत्यमरः मे भर्तृनिदेशेन स्वाम्यनुज्ञया हेतुना यत् रौक्ष्यम् पारुष्यम् तत् हे देवि क्षमस्व इति नम्रः प्रणतः बभूव
सीता तमुत्थाप्य जगादवाक्यम् प्रीतास्मिते सौम्य चिराय जीव बिडौजसा विष्णुरिवाग्रजेन भ्रात्रा यदित्थम् परवानसि त्वम्
सीतेति सीता तम् लक्ष्मणम् उत्थाप्य वाक्यम् जगाद किमिति हे सौम्य साधो ते प्रीतास्मि चिराय चिरम् जीव यत् यस्मात् बिडौजसेन इन्द्रेण विष्णुः उपेन्द्रः इव अग्रजेन ज्येष्ठेन भ्रात्रा त्वम् इत्थम् परवान् परतन्त्रः असि
श्वश्रूजनम् सर्वमनुक्रमेण विज्ञापय प्रापितमत्प्रणामः प्रजानिषेकम् मयि वर्तमानम् सूनोरनुध्यायत चेतसेति
श्वश्रूजनमिति सर्वम् श्वश्रूजनम् अनुक्रमेण प्रापितमत्प्रणामस्सन् मत्प्रणामम् उक्त्वा इत्यर्थः विज्ञापय किमिति निषीच्यत इति निषेकः मयि वर्तमानम् सूनोः त्वत्पुत्रस्य प्रजानिषेकम् गर्भम् चेतसा अनुध्यायत शिवमस्तु इति चिन्तयत इति।